इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। अमेरिका देशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः अवदत् यत् सः ईरान देशस्य विरुद्धं सैन्य कार्याचरणान् समापयितुं विचारयन् अस्ति। उक्तं च यत् सः अभियानस्य उद्देश्यं साधयितुम् अतीव समीपे अस्ति। संयुक्तराज्य अमेरिकया सम्प्रति समुद्रे विलम्बितस्य ईरानस्य तैलस्य विक्रयणाय अनुमतिः प्रदत्ता। त्रिंशत् दिनेभ्यः प्रतिबन्धात् मुक्तेः घोषणापि कृता। प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य ईरान देशस्य राष्ट्रपतिना डॉ मसूद पेजेसकियन इत्यनेन सह वार्तालापं कृत्वा ईद पर्वणः नवरोज पर्वणः च शुभाशयाः प्रदत्तम्। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य मथुरा जनपदस्य गोवर्धनस्य दानघाटी देवालयं गत्वा प्रार्थनां कृतवती। देहलीं प्रत्यागमनात् पूर्वं राष्ट्रपतिः पारम्परिकं गोवर्धन प्रदक्षिणामपि अकरोत्। अद्य देशस्य विभिन्नेषु भागेषु ईद उल फितर उत्सवः आचर्यते। राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमन्त्री च जनानां कृते शुभाशयाः प्रेषितवन्तः। अपि च भारत ऋतुविभागेन अद्य ओडिशा पश्चिमबङ्गप्रदेशयोः सिक्किमप्रदेशस्य च कृते नारङ्गवर्णीया सञ्चेतना प्रदत्तास्ति। अथ वार्ताः विस्तरेण। अमेरिका देशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन उक्तं यत् सः ईरान देशस्य विरुद्धं सैन्य कार्याचरणान् समापयितुं विचारयति। ट्रुथ सोशल इत्यत्र एकस्मिन् लेखे ट्रम्पः अवदत् यत् ते सैन्य कार्याचरणे स्वलक्ष्यं साधयितुम् अतीव समीपे सन्ति। अतः मध्यपूर्वदेशे सैन्य प्रयासानां प्रतिसमाप्तिं कर्तुं चिन्तयन्ति। तस्य सन्देशाः अधुना पर्यन्तं प्रबलं संकेतमस्ति यत् सः फरवरी 28 दिनाङ्कादारब्धा शत्रुता शीघ्रमेव समापयितुं सज्जः स्यात्। फरवरी मासस्य 28 दिनाङ्के अमेरिका इज़राइल देशयोः आक्रमणानां प्रतिक्रियारूपेण ईरान देशस्य तीव्र आक्रमणावधौ ट्रम्पस्य इदं वक्तव्यम् आगतम्। संयुक्तराज्य अमेरिकया सम्प्रति समुद्रे विलम्बितस्य ईरानस्य तैलस्य विक्रयणाय अनुमतिः प्रदत्ता। 30 दिनेभ्यः प्रतिबन्धात् मुक्तेः घोषणाम् अपि कृता। अमेरिकादेशस्य वित्तसचिवः स्कॉट वेशेंट इत्येषः अवदत् यत् अस्य निर्णयस्य उद्देश्यम् अस्ति यत् पूर्वमेव उपलभ्यमानानां तैलापूर्तिं मुक्तिं कृत्वा वैश्विकापणं शीघ्रमेव स्थिरं करणीयम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य ईरान देशस्य राष्ट्रपतिना डॉ मसूद पेजेसकियन इत्यनेन सह वार्तालापं कृत्वा ईद नवरोज पर्वयोः च शुभाशयाः प्रदत्तवान्। अयम् उत्सवकालः पश्चिम एशियायां शान्तिं स्थिरतां समृद्धिं च आनयति इति उभौ नेतारौ आशां प्रकटितवन्तौ। सामाजिकान्तर्जालीये सन्देशे प्रधानमन्त्री श्रीमोदी अस्मिन् क्षेत्रे महत्वपूर्णमूलसौकर्याणाम् उपरि आक्रमणस्य निन्दाम् अकरोत् येन वैश्विकापूर्तिश्रृङ्खलाः च बाधिताः सन्ति। ईरानदेशे भारतीय नागरिकाणां सुरक्षायै ईरानदेशस्य निरन्तर समर्थनस्य श्रीमोदी प्रशंसाम् अकरोत्। उत्तर प्रदेशस्य प्रवासस्य तृतीये तथा अन्तिमे दिने राष्ट्रपतिः द्रौपदी मुर्मुः अद्य मथुरा जनपदस्य गोवर्धने दानघाटी देवालयं गत्वा प्रार्थनां कृतवती। देहलीं प्रत्यागमनात् प्राक् राष्ट्रपतिः पारम्परिकं गोवर्धन प्रदक्षिणाम् अपि अकरोत्। अवधेयं यत् राष्ट्रपतिपदासीनया द्रौपदी मुर्मू वर्यया स्वीया उत्तरप्रदेशस्य त्रिदिवसीया यात्रा गुरुवासरे अयोध्यायां श्रीरामजन्मभूमि मन्दिरस्य दर्शनेन सह आरब्धा। ततः परं सा इस्कॉन मन्दिरे वृन्दावने प्रेममन्दिरे च पूजार्चनां च कृतवती। अद्य देशस्य विभिन्नेषु भागेषु ईद उल फितर उत्सवः आचर्यते। अयम् उत्सवः रमजान इत्यस्य उपवासमासस्य परिसमाप्तिं सूचयति। अस्मिन् अवसरे पारम्परिकवस्त्राणि धारयन्तः श्रद्धालवः ईदगाः स्थलेषु मस्जिदेषु च प्रार्थनां कुर्वन्ति। ते परस्परम् अभिवादनं कुर्वन्ति स्वीकुर्वन्ति च मधुराणि निवेदयन्ति शुभाशयाः च प्रददन्ति। राष्ट्रपतिः द्रौपदी मुर्मुः उपराष्ट्रपतिः सीपी राधाकृष्णनवर्यः प्रधानमन्त्री नरेन्द्रमोदी च अद्य ईद उल फितर इत्यस्यावसरे जनानां कृते शुभाशयाः प्रेषितवन्तः। केन्द्रीय रक्षामन्त्री राजनाथसिंहः अवदत् यत् विश्वं सङ्कटकाले अस्ति। यत्र अनेकेषु देशेषु संघर्षाः प्रचलन्ति। सः अवदत् यत् पश्चिम एशियायां प्रचलिताः आक्रमणाः न केवलं भारतस्य अपि तु सम्पूर्णस्य विश्वस्य कृते चिन्तायाः विषयाः सन्ति। पश्चिम एशिया देशे वर्तमान संघर्षात् उद्भूतस्य ऊर्जा खाद्य संकटकालस्य विषये सः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वे देशः एतादृशात् संकटात् सुरक्षितः अस्ति। सः अद्य उत्तराखण्ड राज्यस्य हल्द्वानी नगरे राज्य सर्वकारस्य चतुर्वर्षाणां पूर्त्यवसरे आयोजिते कार्यक्रमे सम्बोधयनासीत्। श्री सिंहः अवदत् यत् भारतम् अस्मिन् विषये स्पष्टं स्थितिं स्वीकृतवान् अस्ति यत् संवादस्य कूटनीतेः च माध्यमेन समाधानम् अन्वेष्टितव्यम्।
भारत ने पक्ष को रखते हुए कहा, विश्व की इस समय की जो सबसे गंभीर समस्या है, जिस तरह से विश्व में युद्ध चल रहा है, उसका समाधान निकालना है तो वह युद्ध के माध्यम से उसका समाधान नहीं निकलेगा, उसका समाधान निकलेगा तो डायलॉग और डिप्लोमेसी से ही निकलेगा।
प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय पर्यावरण वन्य ऋतुदशा परिवर्तन मन्त्री भूपेन्द्र यादवः देशस्य विकासाय अर्थव्यवस्थायाः पर्यावरणस्य च मध्ये संतुलित दृष्टिकोणस्य आवश्यकतायाः विषये अवधानं प्रदत्तवान्। अन्ताराष्ट्रिय वन दिवसस्यावसरे अद्य देहरादून नगरे द्विदिवसीय राष्ट्रिय कार्यशालायाः उद्घाटनसत्रं सम्बोधयन् सः अवदत् यत् एतत् सन्तुलनं प्राप्तुं विज्ञानाधारित दृष्टिकोणस्य आवश्यकता वर्तते।
विकसित भारत केवल इकोनॉमिकली मजबूत भारत नहीं होना चाहिए, इकोलॉजिकली सस्टेन करने का मंत्र देने वाला भारत भी होना चाहिए। इकोनॉमी और इकोलॉजी में एक बैलेंस एटीट्यूड हमको लेना चाहिए। उसके लिए साइंस बेस्ड जो भी हमारी अप्रोच है, टेक्नोलॉजी बेस्ड जो हमारे इंटरवेंशंस हैं और कार्बन न्यूट्रल ये हमारा इंडस्ट्रियल ग्रोथ है, इन विषयों को अगर हम आगे बढ़ाएंगे तभी हम ग्रीन जीडीपी को आगे बढ़ाएंगे।
भारतस्य निर्वाचनायोगेन ईसीआई इत्यनेन राज्ये विशेष गहन संशोधनस्य एसआईआर अभ्यासस्य अंशरूपेण मतदातृसूच्यां मतदातृणां समावेशनम् अथवा बहिष्करणम् इत्येतैः सम्बद्धाः याचिकाः श्रोतुं पश्चिमबंगालराज्ये ऊनविंशति याचिका न्यायाधिकरणानि निर्मितानि। निर्वाचनायोगः अवदत् यत् सर्वोच्चन्यायालयस्य अस्य वर्षस्य मार्चमासस्य दशमे दिनाङ्के प्रसारितस्यादेशस्यानुगुणं कलकत्ता उच्चन्यायालयस्य मुख्यन्यायाधीशेन कृत अनुशंसया च अयं निर्णयः स्वीकृतः। अस्मिनुक्तं यत् ऊनविंशति न्यायाधिकरणेषु एकस्य नेतृत्वं पूर्वमुख्यन्यायाधीशः टीएस शिवगनं करिष्यति, अवशिष्टस्य नेतृत्वं पूर्व उच्च न्यायालयस्य न्यायाधीशाः करिष्यन्ति, येषु प्रदीप्तः रे, तपेन सेनः च अस्ति। भाजपेति दलेन केरलम् राज्यस्य आगामि विधानसभा निर्वाचनाय एकादश प्रत्याशिनां तृतीया सूची प्रसारिता। कोवलम् विधानसभा क्षेत्रात् टीएन सुरेशः, पीरुमाडे क्षेत्रात् बी रथीशः, मावेल्लिकारा क्षेत्रात् अजीमोनः, अरुविक्कारा क्षेत्रात् विवेक गोपनः, चवरा क्षेत्रात् के आर राजेशः च दलस्य प्रत्याशी भविष्यति। प्रत्याशिनां नामानि भाजपा केन्द्रीय निर्वाचन समित्या निर्णीतानि। केरलस्य 44,100 आसनानां विधानसभायाः मतदानम् अप्रैल मासस्य नवमे दिनांके भविष्यति, मतानां गणना मई मासस्य चतुर्थे दिनांके भविष्यति। भारत ऋतु विभागेन आईएमडी इत्यनेन अद्य ओडिशा पश्चिम बंग प्रदेशयोः सिक्किम प्रदेशे च ओलावृष्ट्या सह मेघगर्जनस्य कृते नारंगवर्णीया संचेतना प्रदत्ता अस्ति। श्वः यावत् छत्तीसगढ़ राज्ये, कर्नाटके, आंध्रप्रदेशे च मेघवृष्टेः विद्युत स्खलनस्य च पूर्वानुमानमपि विभागेन कृतम्। अग्रिमेषु दिनद्वयोः पूर्वोत्तर राज्येषु अपि एतादृशेः स्थितेः अपेक्षा अस्ति। एतदतिरिच्य केरलम् माहे प्रदेशयोः श्वः यावत् उष्ण आर्द्र ऋतोः संभावना विद्यते। इति वार्ताः।